महीमहे तपसे दीध्येरिन्द्रायेत्थ तपसे अतौजान् यो अस्मै सुमतिम् वाजसादौ स्तुतो जने समर्जस्येत सत्त्वन्न इन्द्रभियसानो अर्कैर्हरेणाग्रवश्रेः या यत्थामघवन्नशोहम् वक्षो अभिप्रायः सक्षिजनान् न चेत इन्द्राभ्या अस्मदृष्ट्वा युक्तासो अब्रह्मदायसन् तिष्ठारथमधिकम् वज्रहस्तारस्मिन् देवयमसे स्वस्वाहा ब्रूयत्त इन्द्रजम् युक्थागवे जगर्थोर्वरा सुयुध्यम् लक्ष्ये सूर्यागचिलोकशिस्वे मृडा समत्सु दासस्य नामाचित् वयम् देत इन्द्रजे जनरः सर्धो यज्ञानायाताश्च रथाः आस्माम् जगम्यादयुष्पसत्त्वा भगो न हव्यः प्रभृतेषु चारुः वृक्षेण्यमिन्द्रत्वे योजो नृणानि च ऋतमानो अमर्तः स नयेनीम् वसवानो रयिन्दा प्रार्यस्तु षेतु विमघस्य दानम् एवान इन्द्रोतिभिरवपाहि गृणतः सूरकारून् उदत्वदम् ददतो वाजसादौ विभ्रीमध्वसुरुतस्य चारोः उदत्ते मा पौरुकुत्सस्य सूरेस्त्रसदस्योधिरणिनोरराणाः वरम् तु मादसस्येतासो अस्य कैरिक्षितस्य क्रतुभिर्नुसस्ते उदत्ते मारुता स्वस्य सो नाः कृत्वा मघासो विदधस्य रातौ सहस्रा मेच्छवतानो ददानालोकवर्गोपूषेणार्चत् उदत्ये माध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुजोजदानाः मह्नाराजः संवरणस्य ऋषेर्भजम् नगावः प्रजता अभिग्मन्